ओम अथ षोडशोऽध्याय पार्थिवपूजन प्रकारस्तत्फलानि च ऋषयवूचुः पार्थिव प्रतिमा पूजा विधानं ब्रूहि सत्तम येन पूजा विधानेन सर्वाभीष्टमवाप्यते। सूत उवाच सुसाधु पृष्टयुष्माभिः सदा सर्वार्थदायकं सद्यो दुःखस्य शमनं शृणुत प्रभ्रवामवः। अपमृत्युहरं कालमृत्योश्चापि विनाशनं सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः अन्नादि भोज्यं वस्त्रादि सर्वमुत्पद्यते यतः ततो मृदादिप्रतिमा पूजाभीष्टप्रदा भुवि। पुरुषाणां च नारीणामधिकारोऽत्र निश्चितं नद्यां तडागे कूपे वा जलान्तं मृदमाहरेत् संशोध्यगन्धचूर्णेन पेषयित्वा सुमुण्डपे। हस्तेन प्रतिमां कुर्यात् क्षीरेण च सुसंस्कृताम् अङ्गप्रत्यङ्गकोपेताम् आयुधै च समन्विताम् पद्मासनस्थितां कृत्वा पूजयेद् आदरेण हि विघ्नेशादित्यविष्णूनाम् अम्बायाश्च शिवस्य च शिवस्य शिवलिङ्गं च सर्वदा पूजयेद्विदः। षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये पुष्पेण प्रोक्षणं कुर्यात् अभिषेकं समन्त्रकं शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः। गृहं तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थभञ्जकम् एवं पूर्णफलं विद्यादधिगं वै द्वयं त्रयं सहस्रपूजया सत्यं सत्यलोके लभे द्विजः। द्वादशाङ्गुलमायामं द्विगुणं च ततोऽधिकं प्रमाणमङ्गुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः। तदष्टभागः प्रस्थ स्यात् तच्चतुष्कुडवं मतं दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च जलतैलादिगन्धानां यथा योग्यं च मानदः। मानुषाश्च स्वयम्भूनां महापूजेति कथ्यते अभिषेकादात्मशुद्धिर्गन्धात् पुण्यमवाप्यते आयुस्तृप्तिश्च नैवेद्यात् धूपाद् अर्थम् अवाप्यते दीपाद् ज्ञानमवाप्नोति ताम्बूलाद् भोगमाप्नुयात् तस्मात् स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् नमस्कारो जपश्चैव सर्वाभीष्टप्रदाबुभौ। पूजान्ते च सदा कार्यौ भोगमोक्षार्थिभिर्नरैः सम्पूज्य मनसा पूर्वं कुर्यात् तत्तत्सदा नरः। देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् तदवान्तरलोके च यथेष्टं भोग्यमाप्यते। तद्विशेषान् प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः। विघ्नेश पूजया सम्यक् भूर्लोके अभीष्टमाप्नुयात् शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके भिषदृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् शतं पूजासहस्रं वा तत्सङ्ख्याकदिनैर्यजेत् देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणां सर्वपापप्रशमनं तत्तद्दुरितनाशनं वारपूजां शिवादीनाम् आत्मशुद्धिप्रदामिदुः। तिथिनक्षत्रयोगानाम् आधारं सार्वकामिकं तथा वृद्धिक्षयाभावात् पूर्णब्रह्मात्मकं विदुः। उदयादुदयं वारो ब्रह्मप्रभृतिकर्मणां तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणां पूर्वभागपितॄणां तु इषियुक्तः प्रशस्यते परभागस्तु देवानां दिवायुक्तः प्रशस्यते। उदयव्यापिनी ग्राह्य मध्याह्ने यदि सा तिथिः देवकार्ये तथा ग्राह्यास्तिथिरुक्षादिका शुभाः। सम्यग् विचार्य वारादीन् कुर्यात् पूजा जपादिकं पूजार्यते अनेनेति वेदेष्वर्थस्य योजनां पूर्वभोगफलसिद्धिश्च जायते तेन कर्मणां मनोभावां तथा ज्ञानम् इष्टभोगार्थयोजनात् पूजाशब्दार्थ एवं हि विसृतो लोकवेदयोः नित्यनैमित्तिकं कालात् सद्यः काम्ये स्वनुष्ठिते नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमं तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयक्रमात् महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके पक्षपापक्षयकरी पक्षभोगफलप्रदा चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके श्रावणादित्यवारे च सप्तम्यां हस्तभे दिने माघशुक्ले च सप्तम्याम् आदित्ययजनं चरेत् ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवणर्क्षके द्वादश्यां विष्णुयजनम् इष्टसम्पत्करं विदुः। श्रावणे विष्णुयजनम् इष्टारोग्यप्रदं भवेत् गवादीन् द्वादशानर्थान् साङ्गान् दत्त्वा तु यत्फलं तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् द्वादश्यां द्वादशान् विप्रान् विष्णो द्वादशनामदः। षोडशैरुपचारैश्च यजेत् तत्प्रीतिमाप्नुयाद् एवं च सर्वदेवानां तत्तद्वादश नामकैः द्वादश ब्रह्मयजनम् तत्तत्प्रीतिकरम् भवेत्। कर्कटे सोमवारे च नवम्या मृगशीर्षके अम्बां यजेद्भूतिकामः सर्वभोगफलप्रदाम् आश्वयुक् शुक्लनवमीम् सर्वाभीष्टफलप्रदाम् आदिवारे चतुर्दश्याम् कृष्णपक्षे विशेषतः आर्द्रायाम् च महार्द्रायाम् शिवपूजा विशिष्यते। माघकृष्णचतुर्दश्याम् सर्वाभीष्टफलप्रदा आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ज्येष्ठमासे महार्द्रायाम् चतुर्दशी दिनेऽपि च मार्गशीर्षार्द्रकायाम् वा षोडशैरुपचारकैः तत्तन्मूर्तिशिवम् पूज्य तस्य वै पाददर्शनम् शिवस्य यजनम् येयम् भोगमोक्षप्रदम् नृणाम् वारादिदेव यजनम् कार्तिके हि विशिष्यते। कार्तिके मासि सम्प्राप्ते सर्वान् देवान्यजेद्बुधः दानेन तपसा होमैर्जपेन नियमेन च षोडशैरुपचारैश्च प्रतिमा विप्रमन्त्रकैः ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत्। कार्तिके देव यजनम् सर्वभोगप्रदम् भवेत्। व्याधीनां हरणम् चैव भवेद्भूतग्रहक्षयः कार्तिकादित्यवारेषु नृणाम् आदित्यपूजनात् तैलकार्षासदानात्तु भवेत्कुष्ठादिसंक्षयः। हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत्। दीपसर्षपदानाच्च अपस्मारक्षयो भवेत्। कृत्तिका सोमवारेषु शिवस्य यजनं नृणां महादारिद्र्यशमनं सर्वसम्पत्करं भवेत्। गृहक्षेत्रादिदाना च गृहोपस्करणादिना कृत्तिका भौमवारेषु स्कन्दस्य यजना नृणां दीपघण्टादिदानाद्वै वाक्सिद्धिर् अचिराद् भवेत्। कृत्तिका सौम्यवारेषु विष्णोर्वै यजनं नृणां दध्योदनस्य दानं च सत्सन्तानकरं भवेत्। कृत्तिका गुरुवारेषु ब्रह्मणो यजनाधनैः मधुस्वर्णाद्यदानेन भोगवृद्धिर्भवेन्नृणां। कृत्तिका शुक्रवारेषु गजगोमेडयाजनाद् गन्धपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणां। बन्ध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः। कृत्तिका शनिवारेषु दिक्पालानां च वन्दनं दिग्गजानां च नागानां सेतुपानां च पूजनं त्रयम्बकस्य च रुद्रस्य विष्णोः पापहरस्य च ज्ञानदं ब्रह्मणश्चैव धन्वन्तर्यश्विनोस्तथा रोगापमृत्युहरणं तत्कालव्याधिशान्तिदम् लवणायासतैलानां माषादीनां च दानतः त्रिकटूफलगन्धानां जलादीनां च दानतः द्रवानां कौणानां च प्रस्तेन फलमानतः स्वर्गप्राप्तिर्धनुर्मासे विषक्काले च पूजनं शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते। विधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते। मार्गशीर्षे अन्नदस्यैव सर्वं इष्टफलं भवेत्। पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च सम्यग्वेदपरिज्ञानं तदनुष्ठानमेव च इहामुत्र महाभोगानन्दे योगं च शाश्वतं वेदान्तज्ञानसिद्धिं च मार्गशीर्षान्नदो भवेत्। मार्गशीर्षे शुषःकाले दिनत्रयमथापि वा यजेद्देवान् भोगकामो न धनुर्मासिको भवेत्। यावत्सङ्गवकालं तु धनुर्मासो विधीयते। धनुर्मासे निराहारो मासमात्रं जितेन्द्रियः आमध्यानं जपेद्विप्रो गायत्रीं वेदमातरं पञ्चाक्षरादिकान् मन्त्रान् पश्चात् आसुप्तिकं जपेत् ज्ञानं लब्ध्वा च देहान्ते विप्रो मुक्तिमवाप्नुयात्। अन्येषां नरनारीणां त्रिस्नानेन जपेन च सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमप्यत इष्टमन्त्रान् सदा जप्त्वा महापापक्षयं लभेत्। धनुर्मासे विशेषेण महानैवेद्यमाचरेत् शालितण्डुलभारेण मरीचप्रस्तकेन च गणनाद्वादशं सर्वम् मध्वाजकुडवेन हि द्रोणयुक्तेन मुद्गेन द्वादश्यव्यञ्जनेन च द्वादशव्यञ्जनेन च घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः द्वादशैश्च दधिक्षीरै द्वादशप्रस्थकेन च नारिकेलफलादीनां तथा गणनया सह द्वादशक्रमुखैर्युक्तं षत्रिंशत्पत्रकैर्युतं कर्पूरखुरचूर्णेन पञ्चसौगन्धिकैर्युतम् ताम्बूलयुक्तम् तु यदा महानैवेद्यलक्षणम् महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् एवम् चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् महानैवेद्यदानेन नरःस्वर्गमवाप्नुयात् महानैवेद्यदानेन सहस्रेण द्विजर्षभाः सत्यलोकम् च तल्लोके पूर्णमायुरवाप्नुयात् सहस्राणाम् च त्रिंशत्या महानैवेद्यदानतः तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् सहस्राणाम् च षत्रिंशज्जन्म नैवेद्यमीरितम् तावन्नैवेद्यदानम् तु महापूर्णम् तदुच्यते महापूर्णस्य नैवेद्यम् जन्मनैवेद्यमिष्यते जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ऊर्जे मासीदिने पुण्ये जन्मनैवेद्यमाचरेत् सङ्क्रान्तिपादजन्मर्क्ष पौर्णमास्यादि संयुते अब्दजन्मदिने कुर्यात् जन्मनैवेद्यमुत्तमम् मासान्तरेषु जन्मर्क्ष पूर्णयोगदिनेऽपि च मेलने च शनैर्वापि तावत्साहस्रमाचरेत् जन्मनैवेद्यदानेन जन्मार्पणफलम् लभेत् जन्मार्पणा शिवः प्रीतः स्वसायुज्यम् ददाति हि इदम् सज्जन्मनैवेद्यम् शिवस्यैव प्रदापयेत् योनिलिङ्गस्वरूपेण शिवो जन्मनिरूपकः तस्माज्जन्मनिवृत्त्यर्थम् जन्मपूजा शिवस्य हि बिन्दुनादात्मकम् सर्वम् जगत्स्थावरजङ्गमम् बिन्दुःशक्तिः शिवो नादः शिवशक्त्यात्मकम् जगत् नादाधारमिदम् बिन्दु बिन्द्वाधारमिदम् जगत् जगदाधारम् भूतौ तु बिन्दुनादो व्यवस्थितौ बिन्दुनादयुतम् सर्वम् सकलीकरणम् भवेत् सकलीकरणाज्जन्म जगत्प्राप्नोत्यदंशकम् बिन्दुनादात्मकम् लिङ्गम् जगत्कारणमुच्यते बिन्दुर्देवी शिवो नादः शिवलिङ्गम् तु कथ्यते तस्माजन्मनिवृत्त्यर्थम् शिवलिङ्गम् प्रपूजयेत् माता देवी बिन्दुरूपा नादरूपः शिवः पिता पूजिताभ्याम् पितृभ्याम् तु परमानन्द एव हि परमानन्दलाभार्थम् शिवलिङ्गम् प्रपूजयेत् सा देवी जगताम् माता स शिवो जगतः पिता पित्रो शुश्रूषके नित्यम् कृपाधिक्यम् हि वर्धते कृपयान्तर्गतैश्वर्यम् पूजकस्य ददाति हि तस्मात् अन्तर्गतानन्दलाभार्थम् मुनिपुङ्गवाः पितृमातृस्वरूपेण शिवलिङ्गम् प्रपूजयेत् भर्गः पुरुषरूपीः भर्गा प्रकृतिरुच्यते अव्यक्तान्तरभिष्टानम् गर्भः पुरुष उच्यते सुव्यक्तान्तरभिष्टानम् गर्भः प्रकृतिरुच्यते पुरुषस्वादिगर्भो हि गर्भवाञ्जनको यतः पुरुषात् प्रकृतौ युक्तम् प्रथमम् जन्म कथ्यते प्रकृतेर्व्यक्तताम् यातम् द्वितीयम् जन्म कथ्यते जन्मजन्तुर्मृत्युजन्म पुरुषात् प्रतिपद्यते अन्यतो भाव्यते अवश्यम् मायया जन्म कथ्यते जीर्यते जन्मकालाद्यस्तस्माज्जीव इति स्मृतः जन्यते तन्यते पाशैः जीवशब्दार्थ एव हि जन्मपाचनवृत्त्यर्थम् जन्मलिङ्गम् प्रपूजयेत् भम् वृद्धि गच्छतीत्यर्थात् भगः प्रकृतिरुच्यते प्राकृते शब्दमात्राद्यैः प्राकृतेन्द्रियभोजनात् भगस्यदम् भोगविधि शब्दार्थो मुख्यतः श्रुतः मुख्यो भगस्तु प्रकृतिर्भगवान् शिव उच्यते भगवान् भोगदाता हि नान्यो भोगप्रदायकः भगस्वामी च भगवान् भर्ग इत्युच्यते बुधैः भगेन सहितम् लिङ्गम् भगम् लिङ्गेन संयुतम् इहामुत्र च भोगार्थम् नित्यभोगार्थमेव च भगवन्तम् महादेवम् शिवलिङ्गम् प्रपूजयेत् लोकप्रसविता सूर्यस्तच्चिह्नम् प्रसवाद्भवेत् लिङ्गे प्रसूतिकर्तारम् लिङ्गिनम् पुरुषो यजेत् लिङ्गाथ लिङ्गार्थगमकम् चिह्नम् लिङ्गमित्यभिधीयते लिङ्गमर्थम् हि पुरुषम् शिवम् गमयतीत्यतः शिवशक्त्योश्च चिह्नस्य मेलनम् लिङ्गमुच्यते स्वचिह्नपूजनात् प्रीतश्चिह्नकार्यम् न वीयते चिह्नकार्यम् तु जन्मादिम् जन्माद्यम् विनिवर्तते प्राकृतैः पुरुषैश्चापि बाह्यान्तरसम्भवै षोडशैरुपचारैश्च शिवलिङ्गम् प्रपूजयेत् एवमादित्यवारे हि पूजा जन्मनिवर्तिका आदिवारे महालिङ्गम् प्रणवेनैव पूजयेत् आदिवारे पञ्चगव्यैर् अभिषेको विशिष्यते गोमयम् गोजलम् क्षीरम् दध्याद्यम् पञ्चगव्यकम् क्षीराद्यम् च पृथक्चैव मधुना चेक्षुसारकैः गव्यक्षीरान्ननैवेद्यम् प्रणवेनैव कारयेत् प्रणवम् ध्वनिलिङ्गम् तु नादलिङ्गम् स्वयम्भुवः बिन्दुलिङ्गम् तु यन्त्रम् स्यान् మకారం తు ప్రతిష్ఠితం ఉకారం చరలింగం స్యాత్ అకారం గురు విగ్రహం షడ్లింగ పూజయా నిత్యం జీవన్ముక్తో న సంశయ శివస్య భక్త్యా పూజా హి జన్మ ముక్తికరీ నృణాం రుద్రాక్ష ధారణాత్ పాదం అర్ధం వై భూతిధారణాత్ త్రిపాదం మంత్రజాప్యా చ పూజయా పూర్ణభక్తిమాన్ శివలింగం చ భక్తం చ పూజ్య మోక్షం లభే నర ఇమం భటతేధ్యాయం శృణుయాద్వా సమాహిత తస్యైవ శివభక్తిశ్చ వర్ధతే సుదృఢా ద్విజాః ఇది శ్రీ శివమహాపురాణే ప్రథమాయాం విద్యేశ్వర సంహితాయాం షోడశోధ్యాయః ఓం.